एकत्वे नियतस्य शुद्ध नयतो व्याप्तोर्यदा स्यात्मनः पूर्णज्ञानघनस्य दर्शनमिह द्रव्यान्तरेभ्यः पृथक् सम्यग्दर्शनमेतदेव नियमादात्मा च तावानयम् तन्मुक्त्वा नवतत्त्वसन्ततिमिमामात्मायमे कोऽस्तु नः।